इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। लोकसभायां निर्वाचन परिष्कार विषये एसआईआर तथा वीवीपैट विषये चर्चा प्रचलति। सर्वोच्च न्यायालयेन बीएलओ तथा अन्याधिकारिणः प्रति भयाक्रांत प्रकरणं गभीरतया लक्षितम् तथा च निर्वाचनायोगम् एतादृशानि प्रकरणानि स्वस्य दृष्ट्यामानेतुम् आदिष्टम्। राष्ट्रपतिः द्रौपदी मुर्मुः अद्य नवदिल्ल्यां 23,000-24,000 वर्षयोः राष्ट्रिय हस्तशिल्प पुरस्कारान् वितरितवती। अपि च भारतस्य रमेश बाबू प्रज्ञानानन्देन 25,000-2,000 वर्षस्य फिडे सर्किट स्पर्धा विजिता। अथ वार्ताः विस्तरेण। लोकसभायां निर्वाचन परिष्कार विषये एसआईआर तथा वीवीपैट उपाय विषये च चर्चा समारब्धा। चर्चायाः आरम्भं कुर्वन् कांग्रेस दलस्य नेता मनीष तिवारी इत्येषः अवदत् यत् निर्वाचनायोगेन एसआईआर इत्यस्य आचरणस्य कारणानि अवश्यमेव वक्तव्यानि। सः अवदत् यत् देशस्य अनेकेषु राज्येषु एसआईआर प्रक्रिया प्रचलति, परञ्च निर्वाचनायोगस्य समीपे एसआईआर इत्यस्य आयोजनस्य वैधानिकाधारः नास्ति। श्रीतिवारिणा उक्तं यत् संविधाने मतदातृसूच्यां विशेषगहन संशोधनस्य व्यवस्था नास्तीति। मुख्यन्यायाधीशः सूर्यकान्तः न्यायाधीशः ज्वायमाल्यबागची इत्येतयोः पीठेन अद्य पश्चिमबङ्गप्रदेशे तथा अन्येषु राज्येषु एसआईआर 2.0 इत्यस्मिन् प्रक्रियायां संलग्नाः बीएलओ तथा अन्याधिकारिणः प्रति भयाक्रान्तप्रकरणं गभीरतया लक्षितम् तथा च निर्वाचनायोगम् एतादृशानि प्रकरणानि स्वस्य दृष्ट्याम् आनेतुम् आदिष्टम्। केन्द्रीयगृहमन्त्री अमितशाहः अवदत् यत् संसदि वन्दे मातरम् गीतस्य उपरि चर्चया भाविसन्ततयः तस्य वास्तविकं महत्वं वैभवं च अवगन्तुं समर्थाः भविष्यन्ति। सः अवदत् यत् राष्ट्रगीतं वन्दे मातरं देशभक्तेः त्यागस्य राष्ट्रियचेतनायाः च प्रतीकम् अभवत्, येन स्वातन्त्र्यान्दोलनस्य मार्गः प्रशस्तः अभवत्। अद्य राज्यसभायां वन्दे मातरं गीतस्य सार्धैकशततमे वार्षिकोत्सवे चर्चायाः आरम्भः कुर्वन् श्रीशाहः अवदत् यत् एषा अमरकृति भारतमातरं प्रति कर्तव्यस्य भक्तेः च भावं प्रज्वालयति। सः अवदत् यत् स्वतन्त्रतासंग्रामस्य समये वन्दे मातरम् आवश्यकमासीत्, अद्यत्वे अपि अस्ति, यदा देशः 47,000-2,000 तमे वर्षे भारतं विकसितं भविष्यति। मन्त्रिणा उक्तं यत् स्वातन्त्र्ययोद्धारः प्रत्येकस्य समागमस्य आरम्भः वन्दे मातरं गीतेन एव क्रियन्ते स्म। अद्य यदा वीरसैनिकाः सीमायां सर्वोच्च बलिदानं कुर्वन्ति तदा ते वन्दे मातरमेव गायन्ति।
वन्दे मातरम् के प्रति समर्पण की जरूरत वन्दे मातरम् बना तब भी थी, आजादी के आंदोलन के वक्त भी थी, आज भी है और जब 2047 महान भारत की रचना होगी तब भी रहे, क्योंकि अमर कृति माँ भारती के प्रति, भारत माता के प्रति समर्पण, भक्ति और कर्तव्य के भाव जागृत करने वाली कृति है।
प्रियाः श्रोतारः, संस्कृत वार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। राष्ट्रपति पदासीना द्रौपदी मुर्मुः अद्य नवदिल्ल्यां 23,000-24,000 वर्षयोः राष्ट्रिय हस्तशिल्प पुरस्कारान् वितरितवती। एताः प्रतिष्ठिताः राष्ट्रिय सम्मानाः असाधारण कलात्मक प्रभुत्वस्य उत्सवम् आचरन्ति तथा च भारतस्य समृद्धस्य विविधतायाः च हस्तशिल्प परम्परायाः संरक्षण प्रचाराणां च कृते प्रशासनस्य प्रतिबद्धतां प्रदर्शयन्ति। उपस्थित जनसमूहं सम्बोधयन्ती राष्ट्रपतिः प्रोक्तवती यत् कला भिन्न संस्कृतिभिः सह जनान् परस्परं संयोजयति। सा अवदत् यत् हस्तशिल्पं न केवलं सांस्कृतिकः परिचयः अपि तु जनानां जीविकायाः महत्वपूर्णः अङ्गोऽपि अस्ति।
हस्तशिल्प हमारी सांस्कृतिक पहचान के साथ साथ जीविका उपार्जन का महत्वपूर्ण साधन भी है। ये सेक्टर देश के 32 लाख से ज्यादा लोगों को रोजगार प्रदान करता है। उल्लेखनीय है कि हस्तशिल्प से रोजगार और आय प्राप्त करने वाले अधिकांश लोग ग्रामीणों या दूर दराज के क्षेत्र से है। ये क्षेत्र रोजगार और आय का विकेंद्रीकरण करके समावेशी विकास को बल देता है।
राष्ट्रपतिः अस्मिन् विषये बलं प्रदत्तवती यत् हस्तशिल्पक्षेत्राणां कार्यबले 68% यावत् महिलाः एव सन्ति। अस्य क्षेत्रस्य विकासः महिलाशक्तिकरणम् अपि सुनिश्चितं करिष्यति। अवधेयं यत् प्रायः 12 शिल्पकाराः 23,000-24,000 वर्षयोः शिल्पगुरुपुरस्कारं प्राप्तवन्तः। तत्रैव 37 शिल्पकाराः उभयोः वर्षयोः राष्ट्रियपुरस्कारैः सम्मानिताः अभवन्। प्रशासनमद्य सूचितवान् यत् अस्मिन् वर्षे देशे खाद्यान्नोत्पादनं 37,35,00,000 टन परिमितादधिकं यावत् अभवत्, यत् गतवर्षस्य अपेक्षया 17.65% यावत् अधिकमस्ति। लोकसभायाम् अनुपूरक प्रश्नस्य प्रत्युत्तरे केन्द्रीय कृषि कृषक कल्याण मन्त्री शिवराज सिंह चौहानः अवदत् यत् कृषकाणां परिश्रमाद् केन्द्र सर्वकारस्य नीतिभिश्च माध्यमेन एव एतत् सम्भवम् अभवत्। सः अवदत् यत् 24,000-25,000 वर्षे देशे सर्वाधिकं सस्योत्पादनं जातम्। श्रीचौहानः सूचितवान् यत् 14,000-15,000 वर्षस्य अपेक्षया खाद्यान्नस्य उत्पादने प्रायः 41.94% यावत् वृद्धिः अभवत् इति।
2024-25 में फसलों का रिकॉर्ड उत्पादन इस बार हुआ है। देश का कुल खाद्यान्न उत्पादन 357.732 मिलियन टन होने का अनुमान है, जो पिछले साल की तुलना में 7.65% अधिक है। और 14-15 की तुलना में अगर देखा जाए तो खाद्यान्न के उत्पादन में 41.94% की वृद्धि की गई है। भारत के किसानों का अभिनंदन, और ये सरकार की नीतियों के कारण भी हुआ है।
अद्य नवदिल्ल्यां संसद भवन परिसरे एनडीए संसदीय दलस्य सभा आयोजिता। प्रधानमन्त्री नरेन्द्र मोदी, गृहमन्त्री अमित शाहः, रक्षामन्त्री राजनाथ सिंहः, भाजपाध्यक्षः जेपी नड्डा, सूचना प्रसारण मन्त्री अश्विनी वैष्णवः, विदेशमन्त्री डॉ एस जयशंकरः, जनता दल यूनाइटेड सदस्यः संजय झाः, राष्ट्रिय लोकमोर्चा प्रमुखः उपेन्द्र कुशवाहा, एनसीपी सदस्यः प्रफुल्ल पटेलः इत्यादयः एनडीए पक्षस्य सदस्याः सभायाम् उपस्थिताः आसन्। सभायां बिहार विधानसभा निर्वाचने प्राप्त विजयाय एनडीए सदस्याः प्रधानमन्त्रिणः मोदिनः अभिनन्दनं कृतवन्तः। सभायाः अनन्तरं वार्ताहरैः सह वार्तालापं कुर्वन् संसदीय कार्यमन्त्री किरेन रिजिजुः अवदत् यत् सभायां प्रधानमन्त्रिणा एनडीए नेतृन् देशस्य विकासाय द्रुतगत्या कार्यं कर्तुम् आदिष्टम्। केन्द्रीय नागरिक उड्डयन मन्त्रिणा श्री राममोहन नायडुना अद्य प्रोक्तं यत् इण्डिगो संस्थायां सद्यः उत्पन्न समाह्वानानां निवारणं शीघ्रमेव भविष्यति, अपि च सुदृढ विमानयान व्यवस्थायाः निर्माणे पुनरुद्घाटने च प्रशासनं पूर्णतया प्रतिबद्धः अस्ति। लोकसभायां इण्डिगो संकट विषये मन्त्री अवदत् यत् इण्डिगो संस्था एव पूर्णरूपेण दोषी अस्ति। मन्त्रिणा निगदितं यत् डीजीसीए विमानसंस्थां प्रति निर्देशाः प्रदत्ताः, यत् तस्य प्रतिवेदनस्य आधारेण एव कठोराचरणं भविष्यति। श्रीनायडुः अवदत् यत् यावत् स्थिति सामान्यतां न प्राप्नोति तावत् प्रशासनं पूर्णतया जागरूकः भूत्वा कार्यं करिष्यति। भारतस्य रमेश बाबू प्रज्ञानानन्द 25,000-तमवर्षस्य फिडे सर्किट् स्पर्धा विजितवान्। सः देशस्य एकमात्रः पुरुषक्रीडकः अभवत् येन 26,000-तमवर्षस्य कैंडिडेट स्पर्धायां स्वीय स्थानं संरक्षितम् इति वार्ताः।